ओम वासुदेवेन्द्र योगींद्रम नत्वा ज्ञानप्रदं गुरुं मुमुक्षूनां हितार्थाय तत्त्वबोधोभिधीयते। साधन चतुष्टय संपन्नाधिकारिणां मोक्ष साधन भूतं तत्व विवेक प्रकारं वक्ष्यामः। साधन चतुष्टयं किं नित्यानित्य वस्तु विवेकः इहामुत्रार्ध फल भोग विरागः समाधि शक्क संपत्तिः मुमुक्षुत्वं चेति। नित्यानित्य वस्तु विवेकः कः नित्यवस्त्वेकं ब्रह्मा तद्व्यतिरिक्तं सर्वमनित्यं अयमेव नित्यानित्य वस्तु विवेकः। विरागः कः इह स्वर्ग भोगेषु इच्छाराहित्यं समाधि साधन संपत्तिक शमोदमो परमस्ति तिक्षा श्रद्धा समाधानं चेति। शमक्कः मनोनिग्रहः दमक्कः चक्षुरादि बाह्येन्द्रिय निग्रहः उपरमक्कः स्वधर्मानुष्ठानमेव। तितिक्षाक शीतोष्ण सुख दुःखादि सहिष्णुत्वं श्रद्धा कीदृशी गुरुवेदांत वाक्यादिषु विश्वासः श्रद्धा। समाधानं किं चित्तैकाग्रता मुमुक्षुत्वं किं मोक्षो मे भूयात् इति इच्छा। एतत् साधन चतुष्टयं ततः तत्त्वविवेकस्याधिकारिनो भवन्ति। तत्त्वविवेकः कः आत्मा सत्यं तदन्यत् सर्वं मिध्येति। आत्मा कः स्थूल सूक्ष्म कारण शरीरात् व्यतिरिक्तः पञ्चकोशातीतः सन् अवस्थात्रय साक्षी सच्चिदानंद स्वरूपः सन् यस्तिष्ठति स आत्मा। स्थूल शरीरं किं पंचीकृत महाभूतैकृतं सत्कर्मजन्यं सुख दुःख भोगायतनं शरीरं अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति। षड्विकारवदेतत् स्थूल शरीरं सूक्ष्म शरीरं किं अपंचीकृत महाभूतैकृतं सत्कर्मजन्यं सुख दुःख भोग साधनं पंच ज्ञानेन्द्रियाणि पंच कर्मेन्द्रियाणि पंच प्राणादयः मनश्चैकं बुद्धिश्चैका एवं सप्तदशलाभिः सह यत्तिष्ठति तत् सूक्ष्म शरीरं। श्रोत्रं त्वक्चक्षुरसनाघ्राणम् इति पंच ज्ञानेन्द्रियाणि श्रोत्रस्य दिग्देवता। त्वचो वायुः चक्षुषः सूर्यः रसनाया वरुणः घ्राणस्य अश्विनौ इति ज्ञानेन्द्रियदेवता। श्रोत्रस्य विषयशब्दग्रहणम् त्वचो विषयस्पर्शग्रहणम् चक्षुषो विषयरूपग्रहणम् रसनाया विषयरसग्रहणम् घ्राणस्य विषयगन्धग्रहणम् इति। वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि। वाचो देवतावह्निः हस्तयोरिन्द्रः पादयोर्विष्णुः पायोर्मृत्युः उपस्थस्य प्रजापतिः इति कर्मेन्द्रियदेवता। वाचो विषयभाषणम् पाण्योर्विषयवस्तुग्रहणम् पादयोर्विषयगमनम् पायोर्विषयमलत्यागः उपस्थस्य विषय आनन्द इति। कारणशरीरं किम् अनिर्वाच्यानाद्यविद्यारूपम् शरीरद्वयस्य कारणमात्रम् सत्स्वरूपाज्ञानम् निर्विकल्पकरूपम् यदस्ति तत्कारणशरीरम्। अवस्थात्रयं किम् जाग्रत्स्वप्नसुषुप्त्यवस्था जाग्रदवस्था का श्रोत्रादि ज्ञानेन्द्रियैः शब्दादि विषयैश्च ज्ञायते इति। यत्सा जाग्रदवस्था स्थूलशरीराभिमानि आत्मा विश्व इत्युच्यते। स्वप्नावस्था का स्वप्नावस्था केति चेत् जाग्रदवस्थायां यद्दृष्टं यत्श्रुतं तज्जनितवासनाय निद्रासमये यः प्रपञ्च प्रतीयते सा स्वप्नावस्था सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते। अतः सुषुप्त्यवस्था का अहं किमपि न जानामि सुखेन मया निद्र अनुभूयत इति सुषुप्त्यवस्था कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते। पञ्चकोशाक्ये अन्नमय प्राणमय मनोमय विज्ञानमय आनन्दमयश्चेति। अन्नमयक्कः अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां यद्विलीयते तदन्नमयकोशस्थूलशरीरम्। प्राणमयक्कः प्राणाद्य पञ्चवायवः वागादीन्द्रियपञ्चकं प्राणमयकोशः। मनोमयक्कः मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयकोशः। विज्ञानमयक्कः बुद्धि ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयकोशः। आनन्दमयक्कः एकमेव कारणशरीरभूत अविद्यास्थमलिनसत्त्वं प्रियादिवृत्तिसहितं एतत् कोशपञ्चकम्। मदीयं शरीरं मदीया प्राणाः मदीयं मनश्च मदीया बुद्धिः मदीयं ज्ञानमिति स्वेनैव ज्ञायते तद्यदा मदीयत्वेन ज्ञातं कटककुण्डलगृहादिकं स्वस्माद्भिन्नं तथा पञ्चकोशादिकं स्वस्माद्भिन्नं मदीयत्वेन ज्ञातम् आत्मा न भवति। आत्मा तर्हिकः सच्चिदानन्दस्वरूपः सत्किं कालत्रये अपि तिष्ठतीति सत् चित्किं ज्ञानस्वरूपः आनन्दकः सुखस्वरूपः। एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात्। अथ चतुर्विंशति तत्त्वोत्पत्तिप्रकारं वक्ष्यामः। ब्रह्माश्रय सत्त्वरजस्तमोगुणात्मका माया अस्ति ततः आकाशः सम्भूतः आकाशाद्वायुः वायोस्तेजः तेजसः आपः आद्भ्यत् पृथिवी। एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतं वायु सात्विकांशात् त्वगिन्द्रियं सम्भूतम् अग्ने सात्विकांशात् चक्षुरिन्द्रियं सम्भूतं जलस्य सात्विकांशात् रसनेन्द्रियं सम्भूतं पृथिव्या सात्विकांशात् घ्राणेन्द्रियं सम्भूतम्। एतेषां पञ्चतत्त्वानां समिष्टिसात्विकांशात् मनोबुद्ध्यहङ्कारचित्तान्तःकरणानि सम्भूतानि। सङ्कल्पविकल्पात्मकं मनः निश्चयात्मका बुद्धिः अहङ्कर्ता अहङ्कारः चिन्तनकर्तृचित्तं। मनसो देवता चन्द्रमाः बुद्धे ब्रह्म अहङ्कारस्य रुद्रः चित्तस्य वासुदेवः। एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतं वायो राजसांशात् पाणीन्द्रियं सम्भूतं वह्ने राजसांशात् पादेन्द्रियं सम्भूतं जलस्य राजसांशात् बुधेन्द्रियं सम्भूतं पृथिव्या राजसांशात् उपस्तेन्द्रियं सम्भूतं। एतेषां समिष्टिराजसांशात् पञ्चप्राणासम्भूताः। एतेषां पञ्चतत्त्वानां तामसांशात् पञ्चीकृतपञ्चतत्त्वानि भवन्ति। पञ्चीकरणं कथम् इति चेत् एतेषां पञ्चभूतानां तामसांशस्वरूपम् एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक्तूष्णीं व्यवस्थाप्य अपरमपरार्धं चतुर्धा विभज्य स्वार्धमन्येषु अर्धेषु स्वभाग चतुष्टय संयोजनं कार्यं तदा पञ्चीकरणं भवति। एतेभ्यः पञ्चीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं भवति। एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम्। स्थूलशरीराभिमानी जीवनामकं ब्रह्मप्रतिबिम्बं भवति। स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति। अविद्योपाधिस्सन् आत्मा जीवः इत्युच्यते। मायोपाधिस्सन् ईश्वर इत्युच्यते। एवम् उपाधिभेदात् जीवेश्वरभेददृष्टि यावत्पर्यन्तं तिष्ठति तावत्पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते। तस्मात् कारणात् न जीवेश्वरयोर्भेदबुद्धिस्वीकार्याः। ननु साहङ्कारस्य किञ्चिज्ञस्य जीवस्य निरहङ्कारस्य सर्वज्ञस्य ईश्वरस्य तत्त्वमसीति महावाक्यात् कथम् अभेदबुद्धिस्यात् उभयोः विरुद्धधर्मक्रान्तत्वात्। इति चेन्न स्थूलसूक्ष्मशरीराभिमानी त्वं पदलक्ष्यार्धः। उपाधिविनिर्मुक्तं समाधिदशासम्पन्नं शुद्धचैतन्यं त्वंपदलक्ष्यार्थः एवं सर्वज्ञत्वादि विशिष्टः ईश्वरः तत्पदवाच्यार्थः उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः एवञ्च जीवेश्वरयोः चैतन्यरूपेण भेदे बाधकाभावः एवञ्च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि भूतेषु येषां ब्रह्मबुद्धिरुत्पन्नाः ते जीवन्मुक्ताः इत्यर्थः ननु जीवन्मुक्तः कः यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति दृढनिश्चयः तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किन्तु असङ्गः सच्चिदानन्दरूपः प्रकाशरूपः सर्वान्तर्यामी चिदाकाशरूपः अस्मीति दृढनिश्चयरूपः अपरोक्षज्ञानवान् जीवन्मुक्तः ब्रह्मैवाहमस्मि त्यपरोक्षज्ञानेन निखिल कर्मबन्ध विनिर्मुक्तः स्यात् कर्माणि कतिविधानि सन्ति इति चेत् आगामि सञ्चित प्रारब्ध भेदेन त्रिविधानि सन्ति ज्ञानोत्पत्त्यनन्तरं ज्ञानी देहकृतं पुण्यपापरूपं कर्म यदस्ति तदागामीत्यभिधीयते सञ्चितं कर्म किम् अनन्तकोटिजन्मानां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं तिष्ठति तत् सञ्चितं ज्ञेयम् प्रारब्धं कर्म किमिति चेत् इदं शरीरमुत्पाद्य इहलोके एवं सुखदुःखादिप्रदं यत्कर्म तत् प्रारब्धं भोगेन नष्टं भवति सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मक ज्ञानेन नश्यति आगामिकर्म अपि ज्ञानेन नश्यति किञ्च आगामिकर्मणा नलिनीदलगतजलवत् ज्ञानिनां सम्बन्धो नास्ति किञ्च ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान् प्रति ज्ञानिकृतम् आगामिपुण्यं गच्छति ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान् प्रति ज्ञानिकृतं सर्वमागामिक्रियमाणां यदवाच्यं कर्म पापात्मकं तद्गच्छति तथा चात्मवित् संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति तरति शोकमात्मवित् इति श्रुतेः तनुं त्यजं वाकाश्यां स्वपचस्य गृहे अथवा ज्ञानसम्प्राप्तिसमये मुक्तो असौ विगताशयः इति स्मृतेश्च।